राम गीता जी का पाठ तीसरा अध्याय श्लोक 11 से 21 तक। राम
वसुदेव सुतं कंसचानुरमर्दनं देवकी करणानन्दं कृष्णं वन्दे जगद्गुरुं देवान् भावयथालेन भावयन्तु परस्परं भावयन्त श्रेय परमवाप्स्यथ इष्टान् भोगानि वो देवा दास्यन्ति यज्ञभाविता तैर्दत्तान् प्रदायैभ्यो यो मुङ्क्तेस्तेन एव स यज्ञशेष्टाशिनः सन्तु मुच्यन्ते सर्वकेल्विषैः भुञ्जते ते त्वं पाप पचन्त्यात्मकारणात् अन्नाद्भवन्ति भूतानि पर्जन्यादन्न सम्भव यज्ञाद्भवति पर्जन्यो यज्ञकर्मसमोद्भव कर्म ब्रह्मोद्भवम् बुद्धि ब्रह्माक्षरसमोद्भवम् तस्मात् सर्वगतम् ब्रह्म नित्यम् यज्ञे प्रतिष्ठितम् एवम् प्रवर्तितम् चक्रम् नानुवसयति हय अभायुरेन्द्रिया रामो मोघम् पाथ सजीवति यस्वात्मरतिरेव स्यादात्मतेत्तस्त मानव आत्मन्येव स सन्तुष्ट तस्य कार्यं न विद्यते नैव तस्य कृतेनार्थो नाच्युते नेह कश्चन न सास्य सर्वभूतेषु कश्चिदर्थव्यपाशय तस्मादसक्तः सततम् कार्यं कर्म समाचर असक्तो ह्याचरन् कर्म परमाप्नोति पुरुष कर्मणैव हि संसिद्धि मास्थिता जनकादय लोकसङ्ग्रहमेवापि सम्पश्यन् कर्तुमर्हसि यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जन स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जन स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते वसुदेवसुतं देवं पञ्चजानुरमर्दनम् देवकी करणानन्दम् कृष्णं वन्दे जगद्गुरुम् कृष्णं वन्दे जगद्गुरुम्
हरिशरणं हरिशरणं हरे शरणम 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 हरे शरणम।